एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेपाल चीन देशयोः सीमा क्षेत्रस्य चीनदेशीय सिजाङ स्वायत्त क्षेत्रस्य जिंगी काउन्टी स्थाने ह्यः प्रातः दुरापन्ने 0.8 षडङ्कानां म्याग्नेच्यूट परिमिते भूकम्पे निपत्य मृतानां जनानां संख्या 28.1% प्राप्ता अस्ति। भूकम्पे निपत्य 88.1% जना आहता वर्तन्ते। भूकम्पनस्य पश्चात् कतिसूचित घण्टासु 44 अधिकवारं भूपराकम्पनं दुरापन्नमस्तीति भूगर्भविद्भिः उक्तं वर्तते। भूकम्पस्य केन्द्रबिन्दुः सिगाजीनगरस्य डेंगी काउन्टी क्षेत्रमासीत्। भूकम्प प्रभावितेषु क्षेत्रेषु सहस्रत्रयं शतचतुष्टयंशीति संख्यायाः अपि अधिका उद्धारकर्तारः 44.3% अधिकाः स्वास्थ्यकर्मिणः परिचालिताः वर्तन्ते। भूकम्प प्रभाविते क्षेत्रे न्यूनतम तापक्रमः 0 न्यूनाश्चांक डिग्री सेल्सियस परिमितो वर्तते। तत्र क्षेत्रे 0 18 डिग्री सेल्सियस पर्यन्तं तापक्रमः भवतीति वातावरणविद्भिः ज्ञापितम् अस्ति। अत्रान्तरे चीनदेशीय राष्ट्रपतिना शी जिनपिङ इत्यनेन सर्वविध प्रकाराणाम् उद्धाराणाम् प्रयासाय निर्दिष्टम् वर्तते। ह्यः भूकम्पस्य प्रभावः काष्ठमण्डप उपत्यका सहितेषु देशस्य पूर्वभागेषु भारत भूटान बंगलादेशेषु चापि अनुभूतः आसीत्। अत्रान्तरे नेपाले अनेन भूकम्पेन सोलुखुम्बु जनपदस्य दूधकोशी ग्रामपालिकायाः खुम्बु पासाङ लामु ग्रामपालिकायाश्च गृहद्वय क्षतिः प्राप्ता स्थिति प्रहरिणा ज्ञापितम् वर्तते। संखुवासभा जनपदेऽपि भूकम्पेन एकस्मिन् गृह क्षतिः प्राप्ता स्थिति संखुवासभा प्रमुख जनपदाधिकारी विनोद कुमार खड्का सूचयति। भूकम्पस्य कारणेन नेपाले अधुनावधि 13 जना आहता 11 जना अचेतावस्थायां प्राप्ताश्चेति नेपाल प्रहरिण केन्द्रीय प्रवक्त्रा प्रहरी वरिष्ठो परीक्षक विश्व अधिकारिणा ज्ञापितमस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन चीन देशस्य स्वशासित तिब्बत क्षेत्रे ह्य प्रात दुरापन्नेन भूकम्पेन जातां जनधनयो क्षतिं प्रति दुःखं व्यक्तं वर्तते। राष्ट्रपतिना पौडेलेन एक सामाजिक सञ्जालस्य माध्यमेन भूकम्पेन त्यक्त प्राणानां जनानां परिवारजनेषु समवेदनां सहानुभूतिं च प्रकटयता आहतानां जनानां शीघ्र स्वास्थ्यलाभस्य कामना विहिता वर्तते। नेकपा एमाले दलस्य केन्द्रीय समितेः उपवेशः सुशासनस्य विकासस्य समृद्धेश्च लक्ष्यं पूरयितुं राजनीतिक स्थायित्वस्य प्रतिबद्धता सहितान् विभिन्नान् प्रस्तावान् पारितीकृत्य ह्यः सम्पन्नोऽस्ति। ललितपुरस्य च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालये रविवासराद् उपविष्टेन केन्द्रीय समितेः उपवेशेन ह्यः सामयिकं 14 सूत्रात्मकं प्रस्तावं पारितीकृतमस्ति। उपवेशेन राष्ट्रिय हितस्य रक्षा सामाजिकार्थिक रूपान्तरणं सुशासनं वृत्ति उपार्जनं भ्रष्टाचार नियन्त्रणं जलविप्लव भूस्खलन भूकम्पै पीडितानां उद्धारः मिथ्यां सूचनां रोद्धुं नियामक निकायानां भूमिकायाः प्रभावकारिता चेत्यादिषु विषयेषु प्रभावकारी कार्यस्य चालनाय सर्वकारम् अनुरोद्धुं निर्णीतमस्ति। केन्द्रीय समितेः उपवेशानन्तरं सञ्चारकर्मिभिस्सह प्रसार विभाग प्रमुखः राजेन्द्र गौतमः नेकपा एमाले नेपाली कांग्रेस दलयोः संयुक्त सर्वकारस्य संघटनानन्तरं देशे राजनैतिक स्थायित्वस्य आशा जागृतास्तीति उपवेशस्य निष्कर्षो वर्तते इति अज्ञापयत्। ह्यस्तनोपवेशे राजनीतिकं प्रतिवेदनमाधृत्य विहितस्य विमर्शनस्य अनन्तरं दलाध्यक्षः प्रधानमन्त्री च केपी शर्मा ओली दले केपी पूर्वसमूहा न सन्तीति अवोचत्। प्रधानमन्त्री ओली आलोचनायाः विषयाः दले प्रस्तोतुं शक्यन्ते किन्तु लोकतन्त्र नाम्ना दलस्य समाप्तये विधीयमानः समूहोपसमूहाः स्वीकार्याः न भविष्यन्तीति प्रावोचत्। प्रधानमन्त्री ओली देशस्य स्थायित्वाय समृद्धये च लक्ष्यसहितस्य समाजवादस्य गन्तव्यं विचार्य वर्तमान सर्वकारेण कार्यं विधीयमानमस्तीति प्रावोचत्। नेकपा माओवादी केन्द्रस्य ह्यः सम्पन्नेन उपवेशेन षाण्मासिकं संघटन विस्ताराभियानं संचालयितुं निर्णीतमस्ति। काष्ठमण्डपे ह्य सम्पन्नेन माओवादी केन्द्रस्य केन्द्रीय समितेः उपवेशेन षाण्मासिकं संघटन विस्ताराभियानं संचाल्य महाधिवेशनस्य प्रस्तावसहितं राजनीतिकं प्रतिवेदनं पारितीकृतं वर्तते। उपवेशेन माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दहालेन प्रस्तुतं राजनीतिक प्रतिवेदनम् आधृत्य दिनत्रयं यावत् विमृश्य सर्वसम्मततया पारितीकृतमस्ति इति माओवादी केन्द्रस्य प्रवक्ता अग्निप्रसाद सापकोटा असूचयत्। उपवेशेन प्रत्यक्ष निर्वाचित राष्ट्रपति प्रणाली, पूर्ण समानुपातिक निर्वाचन प्रणाली, महिलानां दलितानां च राज्यस्य निकायेषु स्थाननिश्चयादि विषयान् विचार्य संविधान संशोधनस्य प्रस्तावः पारितीकृतोऽस्ति इति प्रवक्ता सापकोटा असूचयत्। एवमेव उपवेशेन आवश्यकं पूर्वकार्यं प्रपूर्य फाल्गुनमासस्य प्रथमदिवसात् सहायक राजमार्गं, पूर्व पश्चिम राजमार्गं च केन्द्रीकृत्य जनतया सह माओवादी इति नामकस्य अभियानस्य संचालनस्य, आगामी वैशाख मासे हिमालयीय क्षेत्रं मध्यपर्वतीय क्षेत्रं च योजयितुं मध्यपर्वतीय राजमार्ग केन्द्रितम् अभियानस्य संचालनार्थं निर्णीतमस्ति इति अध्यक्षस्य प्रचण्डस्य सचिवालयेन ज्ञापितम् वर्तते। उपवेशस्य अन्तिमं सत्रं सम्बोधयन् अध्यक्षः प्रचण्डः दले विचाराणां कार्ययोजनानां भावनायाश्च एकतां साधयितुम् उपवेशः सफलः सम्भूतोऽस्ति इति प्रावोचत्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विधेन सह राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्षेण राजेन्द्र लिङ्गदेन इत्यनेन मेलवार्ता विहिता अस्ति। बुढा नीलकण्ठवर्तिनी सभापतेः देउवाविधस्य निवासे ह्यः सम्भूते मेलने अनयोर्मध्ये समसामयिक विषयेष् राजनीतिक विषयेष् च विमृष्टमिति राप्रपा दलस्य प्रवक्ता मोहन श्रेष्ठः अज्ञापयत्। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह भाषते वाग्मती कार्ययोजना प्रकृति मैत्री रूपेण अग्रेसार्यते। अधिकार सम्पन्न वाग्मती सभ्यतैकीकृत विकास समित्या काष्ठमण्डप उपत्यकाया नगर प्रमुखैः उपप्रमुखैश्च सह प्रस्तावितायाः वाग्मती कार्ययोजनायाः विषये ह्यः विहिते विमर्शने उपप्रधानमन्त्री सिंह आगामिनी योजना प्रकृति मैत्री रूपेण अग्रेसार्यते इति अगदत्। वाग्मती कार्ययोजनया वाग्मती नदी प्रणाल्यां विद्यमानानां अन्यासां सप्तदशानां नदीनां चापि अध्ययनं विधाय प्राकृतिक संरक्षण क्षेत्रे, ग्रामीण क्षेत्रे, उपनगरीय क्षेत्रे, नगरीय क्षेत्रे, तटीय क्षेत्रे च वर्गीकरणं कृत्वा अध्ययनं करिष्यते। विंशति वर्षात्मिकायाः कार्ययोजनायाः कृते खर्वद्वयं, पञ्चविंशति अब्जानि, एकत्रिंशत् कोटयः, षोडश लक्ष्याणि चेति रूप्यकाणां व्ययः अनुमितोऽस्ति इति अधिकार सम्पन्न वाग्मती सभ्यतैकीकृत विकास समितेः आयोजना प्रमुखः नारायण प्रसाद भण्डारी असूचयत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति सर्वकारेण शीघ्रं राष्ट्रिय जनसंख्या नीतेः आनयनाय पूर्वकार्यं विहितमस्ति। ह्यः कैलाली जनपदस्य धनगढ़ी नगरे जनसंख्या सम्बद्धम् अन्तर्क्रिया कार्यक्रमं सम्बोधयन् मन्त्री पौडेलः जनसंख्यायाः क्रमशः न्यूनीभवनस्य सन्दर्भे सर्वकारेण समय सापेक्ष नीतिः अवलम्ब्यमाना अस्ति इति उदैरयत्। विकासं जनसंख्याञ्च भूगोलेन सह संयोज्य अग्रेवर्धनाय बलं ददत् मन्त्री पौडेलः शिक्षा स्वास्थ्यं वृत्ति उपार्जनञ्च सर्वकारस्य दायित्वमस्ति इति अभाषत। इति समाचारः।